अथ द्वितीयोऽध्यायः ध्यानं शृणु महादेवी सर्वानन्दप्रदायकं सर्वसौख्यकरं चैव भुक्तिमुक्तिप्रदायकं श्रीमत्परं ब्रह्म गुरुं स्मरामि श्रीमत्परं ब्रह्म गुरुं भजामि श्रीमत्परं ब्रह्म गुरुं वदामि श्रीमत्परं ब्रह्म गुरुं नमामि ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिं द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यं एकं नित्यं विमलमचलं सर्वधी साक्षिभूतं भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि हृदं भुजे कर्णिकमध्यसंस्थे सिंहासने संस्थितदिव्यमूर्तिं ध्यायेद्गुरुं चन्द्रकलाप्रकाशं सच्चित्सुखाभीष्टवरं ददानम् श्वेताम्बरश्वेतविलेपपुष्पं मुक्ताविभूषं मुदितं द्विनेत्रं वामाङ्कपीठस्थितदिव्यशक्तिं मन्दस्मितं पूर्णकृपानिधानम् आनन्दमानन्दकरं प्रसन्नं ज्ञानस्वरूपं निजबोधयुक्तं योगीन्द्रमीड्यं भवरोगवैद्यं श्रीमद्गुरुं नित्यमहं नमामि वन्दे गुरूणां चरणारविन्दे सन्दर्शितस्वात्मसुखावबोधे जनस्य ये जाङ्गलिकायमाने संसारहालाहलमोहशान्त्यैः यस्मिन् सृष्टिस्थितिध्वंसा निग्रहानुग्रहात्मकं कृत्यं पञ्चविधं शश्वत् भासते तं गुरुं भजेत् पादाब्जे सर्वसंसारा दावकालानलं स्वके ब्रह्मरन्ध्रे स्थितां भोजा मध्यस्थं चन्द्रमण्डलम् अकधादित्रिरेखाब्जे सहस्रदलमण्डले हंसपार्श्वत्रिकोणे च स्मरेत्तन्मध्यगं गुरुं नित्यं शुद्धं निराभासं निराकारं निरञ्जनं नित्यबोधं चिदानन्दं गुरुं ब्रह्म नमाम्यहं सकलभुवनसृष्टिः कल्पिता शेषसृष्टिः निखिलनिगमदृष्टिः सत्पदार्थैकसृष्टिः अतद्गणपरमेष्टिः सत्पदार्थैकदृष्टिः भवगुणपरमेष्टिः मोक्षमार्गैकदृष्टिः सकलभुवनरङ्गा स्थापनास्तम्भयष्टिः सकरुणरसवृष्टिः तत्त्वमालासमष्टिः सकलसमयसृष्टिः सच्चिदानन्ददृष्टिः निवसतु मयि नित्यं श्रीगुरोर्दिव्यदृष्टिः न गुरोरधिकं न गुरोरधिकं न गुरोरधिकं न गुरोरधिकं शिवशासनतः 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 इदमेव शिवम् इदमेव शिवम् इदमेव शिवम् इदमेव शिवम् हरिशासनतो 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 हरिशासनतः विदितं 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 विजनं 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 विधिशासनतो 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 विधिशासनतः एवंविधं गुरुं ध्यात्वा ज्ञानमुत्पद्यते स्वयं तदा गुरूपदेशेन मुक्तोऽहमिति भावयेत्। गुरूपदिष्टमार्गेण मनःशुद्धिं तु कारयत्। अनित्यं खण्डयेत् सर्वं यत्किञ्चित् चात्मगोचरं। ज्ञेयं सर्वं प्रतीतं च ज्ञानं च मनवुच्यते। ज्ञानं ज्ञेयं समं कुर्यात् नान्यपन्था द्वितीयकः। किमत्र बहुनोक्तेन शास्त्रकोटिशतैरपि दुर्लभा चित्तविश्रान्तिः विना गुरुकृपां पराम्। करुणा खड्गपातेन छित्त्वा पाशाष्टकं शिशोः सम्यगानन्दजनकः सद्गुरुः सोऽभिधीयते। एवं श्रुत्वा महादेवी गुरुनिन्दा करोति यः। स याति नरकान् घोरान् यावच्चन्द्रदिवाकरौ। यावत् कल्पान्तको देहः तावद्देवि गुरुं स्मरेत्। गुरुलोपो न कर्तव्यः स्वच्छन्दो यदि वा भवेत्। हुङ्कारेण न वक्तव्यं प्राज्ञशिष्यैः कदाचन। गुरोरग्रेण वक्तव्यम् असत्यं तु कदाचन। गुरुं त्वं कृत्य हुङ्कृत्य गुरुसान्निध्यभाषणः। अरण्ये निर्जले देशे सम्भवेद् ब्रह्मराक्षसः। अद्वैतं भावये नित्यं सर्वावस्थासु सर्वदा। कदाचिदपि नो कुर्यात् अद्वैतं गुरुसन्निधौ। दृश्यविस्मृतिपर्यन्तं कुर्यात् गुरुपदार्चनम्। तादृशस्यैव कैवल्यं न च तद्व्यतिरेकिणः। अपि सम्पूर्णतत्त्वज्ञः गुरुत्यागी भवेद्यदा। भवत्येव हितस्यान्ता काले विक्षेपमुत्कटम्। गुरुकार्यं न लङ्घेता नापृष्ट्या कार्यमाचरेत्। न ह्युत्तिष्ठेद्दिशे नत्वा गुरुसद्भावशोभितः। गुरौ सति स्वयं देवी परेशन्तु कदाचन। उपदेशं न कुर्याथि तदा चेत्राक्षसो भवेत्। न गुरोराश्रमे कुर्यात् दुष्पानं परिसर्पणम्। दीक्षाव्याख्या प्रभुत्वादि गुरोराज्ञां न कारयेत्। नोपाश्रयं च पर्यङ्कं न च पादप्रसारणम्। नाङ्गभोगादिकं कुर्यात् न लीलामपरामपि। गुरूणां सदसद्वापि यदुक्तं तन्न लङ्घयेत्। कुर्वन्नाज्ञां दिवारात्रौ दासवत् निवसेद्गुरौ। अदत्तं न गुरोर्द्रव्यम् उपभुञ्जीत कर्हिचित्। दत्तं च रङ्कवद्ग्राह्यं प्राणोऽप्येतेन लभ्यते। पादुकासनशय्यादि गुरुणा यदभीष्टितं नमस्कुर्वीत तत्सर्वं पादाभ्यां न स्पृशेत् क्वचित्। गच्छत पृष्ठतो गच्छेत् गुरुच्छायां न लङ्घयेत्। नोल्बणं धारये द्वेषं नालङ्कारं स्ततोल्बणान्। गुरुनिन्दाकरं दृष्ट्या धावयेदधवासयेत्। स्थानं वा तत्परित्याज्यं जिह्वाच्छेदाक्षमो यदि। नोच्छिष्टं कस्यचिद्देयं गुरोराज्ञां न च त्यजेत्। कृत्स्नमुच्छिष्टमादाय हविरिव भक्षयेत् स्वयं। नानृतं नाप्रियं चैव न गर्वं नापि वा बहु। न नियोगपरं ब्रूयाद् गुरोराज्ञां विभावयेत्। प्रभो देव कुलेशानां स्वामिन् राजन् कुलेश्वर इति संबोधनैर्भीतः गुरुभावेन सर्वदा। मुनिभिः पन्नगैर्वापि सुरैर्वा शापितो यदि कालमृत्युभयाद्वापि गुरुः संत्राति पार्वती। अशक्ता हि सुराद्याश्च ह्यशक्ता मुनयस्तथा गुरुशापोपपन्नस्य रक्षणाय च कुत्रचित्। मन्त्रराजमिमं देवी गुरुरित्यक्षरद्वयं स्मृतिवेदपुराणानां सारमेव न संशयः। सत्कारमानपूजार्थं दण्डकाशाय धारणः ससन्यासी न वक्तव्या सन्यासी ज्ञानतत्परः। विजानन्ति महावाक्यं गुरोच्चरणसेवया तेनै सन्यासी न प्रोक्ता इतरे वेषधारिणः। नित्यं ब्रह्म निराकारं निर्गुणं बोधयेत् परं भासयन् ब्रह्म भावञ्च दीपो दीपांतरं यथा। गुरुप्रसादतः स्वात्मनि आत्मा रामनिरीक्षणात् समता मुक्तिमार्गेण स्वात्मज्ञानं प्रवर्तते। आब्रह्मस्तम्भपर्यन्तं परमात्मस्वरूपकं स्थावरं जङ्गमं चैव प्रणमामि जगन्मयं। वन्देहं सच्चिदानन्दं भावातीतं जगद्गुरुं। नित्यं पूर्णं निराकारं निर्गुणं स्वात्मसंस्थितं परात्परतरं ध्यायेत् नित्यमानन्दकारकं। हृदयाकाशमध्यस्थं शुद्धस्फटिकसन्निभं स्फटिके स्फाटिकं रूपं दर्पणे दर्पणो यथा। तथात्मनि चिदाकारं आनन्दं सोऽहमित्युत। अङ्गुष्ठमात्रं पुरुषा ध्यायेच्च चिन्मयं हृदि तत्र स्फुरति यो भावः शृणु तत्कथयामि ते। अजोऽहमरोऽहं च अनादिनिधनो ह्यहम् अविकारश्चिदानन्दः अणीयान्महतो महान्। अपूर्वमपरं नित्यं स्वयं ज्योतिर्निरामयं विरजं परमाकाशं ध्रुवमानन्दमव्ययम्। अगोचरं तथा गम्यं नामरूपविवर्जितं निःशब्दं तु विजानीयात् स्वभावाद् ब्रह्म पार्वती। यथा गन्धस्वभावत्वं कर्पूरकुसुमादिषु शीतोष्णत्वस्वभावत्वं तथा ब्रह्मणि शाश्वतम्। यथा निजस्वभावेन कुण्डले कटकादयः सुवर्णत्वेन तिष्ठन्ति तथाहं ब्रह्म शाश्वतम्। स्वयं तथा विधो भूत्वा स्थातव्यं यत्र कुत्रचित्। कीटो भृङ्ग इव ध्यानाद् यथा भवति तादृशः गुरुध्यानं तथा कृत्वा स्वयं ब्रह्ममयो भवेत्। पिण्डे पदे तथा रूपे मुक्तास्तेनात्र संशयः। पार्वत्युवाच पिण्डं किन्तु महादेवा पदं किं समुदाहृतम्। रूपातीतं च रूपं किं एतदाख्याहि शङ्कर। श्रीमहादेव उवाच पिण्डं कुण्डलिनी शक्तिः पदं हंसमुदाहृतं। रूपं बिन्दुरिति ज्ञेयं रूपतीतं निरञ्जनं पिण्डे मुक्ता पदे मुक्ताः रूपे मुक्ता वरानने रूपातीते तु ये मुक्ताः ते मुक्ताग्नात्र संशयः गुरुध्यानेनैव नित्यं देही ब्रह्ममयो भवेत् स्थितश्च यत्र कुत्रापि मुक्तोऽसौ नात्र संशयः ज्ञानं वैराग्यमैश्वर्यं यशश्रीस्वमुदाहृतं षड्गुणैश्वर्ययुक्तो हि भगवान् श्रो गुरुप्रिये गुरुः शिवो गुरुर्देवो गुरुर्बन्धुः शरीरिणां गुरुरात्मा गुरुर्जीवो गुरोरन्यन्न विद्यते एकाकी निःस्पृहः शान्तः चिन्तासूया विवर्जितः बाल्यभावेन यो भाति ब्रह्मज्ञानी स उच्यते न सुखं वेदशास्त्रेषु न सुखं मन्त्रतन्त्रके गुरोप्रसादाधन्यत्र सुख नास्ति महीतले चार्वाक वैष्णवमते सुखं प्राभाकरे नहि गुरोपादान्तिके यद्वत् सुखं वेदान्तसम्मतं न तत्सुखं सुरेन्द्रस्य न सुखं चक्रवर्तिनां यत्सुखं वीतरागस्य मुनेरेकान्तवासिनः नित्यं ब्रह्मरसं पीत्वा तृप्तो यः परमात्मनि इन्द्रं च मन्यते रङ्कं नृपाणां तत्र का कथा यतः परमकैवल्यं गुरुमार्गेण वै भवेत् गुरुभक्तिरतः कार्या सर्वदा मोक्षकाङ्क्षिभिः एकमेवाद्वितीयोऽहं गुरुवाक्येन निश्चितः एवमभ्यस्यता नित्यं न सेव्यं वैवनान्तरम् अभ्यासान्निमिषेणैव समाधिमधिगच्छति आजन्मजनितं पापं तत्क्षणादेव नश्यति किमावाहनमव्यक्ते व्यापके किं विसर्जनम् आमूर्ते च कथं पूजा कथं ध्यानं निरामये गुरुर्विष्णुः सत्त्वमयो राजसच्चतुराननः तामसो रुद्ररूपेण सृजत्यवतिहन्ति च स्वयं ब्रह्ममयो भूत्वा तत्परं चावलोकयेत् परात्परतरं नान्यत् सर्वगं तन्निरामयम् तस्यावलोकनं प्राप्य सर्वसङ्गविवर्जितः एकाकी निःस्पृहः शान्तः स्थातव्यं तत्प्रसादतः लब्धं वा धनलब्धं वा स्वल्पं वा बहुलं तथा निष्कामे नैव भोक्तव्यं सदा सन्तुष्टमानसः सर्वज्ञपदमित्याहुः देही सर्वमयो भुवि सदानन्दः सदा शान्तः रमते यत्र कुत्रचित् यत्रैव तिष्ठते सोऽपि सदेशपुण्यभाजनः मुक्तस्य लक्षणं देवी तवाग्रे कथितं मया उपदेशस्वयं देवी गुरुमार्गेण मुक्तिदः गुरुभक्तित्तथात्यन्ता कर्तव्या वै मनीषिणः नित्ययुक्ताश्रयः सर्वा वेदकृत् सर्ववेदकृत् स्वपरज्ञानदाता च तं वन्दे गुरुमीश्वरं यद्यप्यधीता निगमाः षडङ्गा आगमाप्रिये अध्यात्मादीनि शास्त्राणि జ్ఞానం నాస్తి గురుం వినా. శివ పూజారతో వాపీ విష్ణు పూజారతో ధవా, గురుతత్వ విహీనశ్చేత్ తత్సర్వం వ్యర్థమేవ హి. శివస్వరూపమజ్ఞాత్వా శివ పూజా కృతా యది, సా పూజా నామ మాత్రం స్యాత్ చిత్రదీప ఇవ ప్రియే. సర్వం స్యాత్ సఫలం కర్మ గురు దీక్షా ప్రభావతః, గురులాభాత్ సర్వలాభః గురుహీనస్తు బాలిశః. గురుహీన పశు కీటః పతంగో వక్తుమర్హతి, శివరూపం స్వరూపం చ నజానాతి యత స్వయం. తస్మాత్ సర్వ ప్రయత్నేన సర్వసంగ వివర్జితః, విహాయ శాస్త్ర జాలాని గురుమేవ సమాశ్రయేత్. నిరస్త సర్వ సందేహ ఏకీకృత్య సుదర్శనం, రహస్యం యో దర్శయతి భజామి గురుమీశ్వరం. జ్ఞానహీనో గురుస్తాజ్యో మిథ్యావాదీ విడంబకః, స్వవిశ్రాంతిం న జానాతి పరశాంతిం కరోతి కిం. శిలాయ కిం పరం జ్ఞానం శిలాసంఘ ప్రతారణే, స్వయం తర్తుం న జానాతి పరం నిస్తారయేత్ కథం. నవందనీయాస్తే కష్టం దర్శనాద్ భ్రాంతికారకాః, వర్జయేత్ తాన్ గురున్ దూరే ధీరస్య తు సమాశ్రయేత్. పాషండిన పాపరతాః నాస్తికా భేద బుద్ధయః, స్త్రీలంపట దురాచారా కృతజ్ఞా బక వృత్తయః. కర్మ భ్రష్టా క్షమానష్టా నింద్య తర్కైశ్చ వాదినః, కామిన క్రోధినశ్చైవ హింస్రాశ్చండాశఠాస్తథా. జ్ఞానలుప్త్వాన కర్తవ్యా మహాపాపాస్తథా ప్రియే. ఏభ్యో భిన్నో గురుః సేవ్యా ఏక భక్త్యా విచార్య చ, శిష్యాదన్యత్ర దేవేశీ నవదేద్యస్య కస్యచిత్. నరాణాం చ ఫలప్రాప్తౌ భక్తిరేవ హి కారణం, గూఢో దృఢశ్చ ప్రీతశ్చ మౌనేన సమాహితః. సకృత్కామగతో వాపీ పంచధా గురురీరితః, సర్వం గురుముఖాల్లబ్ధం సఫలం పాపనాశనం. యద్యదాత్మహితం వస్తు తత్తద్రవ్యం న వంచయేత్, గురుదేవార్పణం వస్తు తేన తుష్టోస్మి సువ్రతే. శ్రీగురో పాదుకాం ముద్రాం మూలమంత్రం చ గోపయేత్. నతాస్మితేనాథపదారవిందం బుద్ధీంద్రియ ప్రాణమనోవచోభిః, యచ్చింత్యతే భావితమాత్మయుక్తౌ ముమోక్షిభిః కర్మమయోపశాంతయే. అనేన యద్భవేత్ కార్యం తద్వదామి తవ ప్రియే. లోకోపకారకం దేవీ లౌకికం తు వివర్జయేత్. లౌకికా ధర్మతో యాతి జ్ఞానహీనో భవార్ణవే. జ్ఞానభావే చ యత్ సర్వం కర్మ నిష్కర్మ శ్యామతి, ఇమాం తు భక్తి భావేన పఠేద్వై శృణుయాదపి. లిఖిత్వా యత్ ప్రదానేన తత్సర్వం ఫలమశ్నుతే. గురుగీతామిమాం దేవీ హృది నిత్యం విభావయ, మహావ్యాధిగతైర్దుఃఖైః సర్వదా ప్రజపేన్ముదా. గురుగీతాక్షరైకైకం మంత్రరాజమిదం ప్రియే. అన్యే చ వివిధా మంత్రాః కలాం నార్హంతి షోడశీం, అనంత ఫలమాప్నోతి गुरुगीताजपेन सर्वपापहरादेवी सर्वदारिद्र्यनाशिनी अकालमृत्युहरा चैवा सर्वसङ्कटनाशिनी यक्षराक्षसभूतादि चोरव्याघ्रविघातिनी सर्वोपद्रवकुष्ठादि दुष्टदोषनिवारिणी यत्फलं गुरुसान्निध्यात् तत्फलं पठनाद् भवेत् महाव्याधिहरा सर्वा विभूते सिद्धिदा भवेत् अथवा मोहने वश्ये स्वयमेव जपेत् सदा कुशदूर्वासने देवी ह्यासने शुभ्रकम्बळे उपविश्य ततो देवी जपेदेकाग्रमानसः शुक्लं सर्वत्र वै प्रोक्तं वश्ये रक्तासनं प्रिये पद्मासने जपेन्नित्यं शान्तिवश्यकरं परं वस्त्रासने च दारिद्र्यं पाषाणे रोगसम्भवः मेदिन्यां दुःखमाप्नोति काष्ठे भवति निष्फलं कृष्णाजिने ज्ञानसिद्धिः मोक्षश्रीर्व्याघ्रचर्माणि कुशासने ज्ञानसिद्धिः सर्वसिद्धिस्तु कम्बळे आग्नेयां कर्षणं चैवा वायुव्यां शत्रुनाशनं नैऋत्यां दर्शनं चैवा ईशान्यां ज्ञानमेव च उदज्मुखशान्तिजाप्ये वश्ये पूर्वमुखस्तथा याम्ये तु मारणं प्रोक्तं पश्चिमे च धनागमः मोहनं सर्वभूतानां बन्धमोक्षकरं परं देवराजप्रियकरं राजानं वशमानयेत् मुखस्तम्भकरं चैवा गुणानां च विवर्धनं दुष्कर्मनाशनं चैवा तथा सत्कर्मसिद्धिदम् असिद्धं साधयेत्कार्यं नवग्रहभयापहम् दुःस्वप्ननाशनं चैवा सुस्वप्नफलदायकम् मोहशान्तिकरं चैवा बन्धमोक्षकरं परं स्वरूपज्ञाननिलयं गीताशास्त्रमिदं शिवे यं चिन्तयते कामं तं तं प्राप्नोति निश्चयं नित्यं सौभाग्यदं पुण्यं तापत्रयकुलापहं सर्वशान्तिकरं नित्यं इदं वन्ध्यासुपुत्रदम् अवैधव्यकरं स्त्रीणां सौभाग्यस्य विवर्धनम् आयुरारोग्यमैश्वर्यं पुत्रपौत्रविवर्धनम् निष्कामजापी विधवा पठेन्मोक्षमवाप्नुयात् अवैधव्यं सकामा तु लभते चान्यजन्मनि सर्वदुःखमयं विघ्नं नाशयेत्तापहारकं सर्वपापप्रशमनं धर्मकामार्थमोक्षदं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितं काम्यानां कामधेनुर्वै कल्पते कल्पपादपः चिन्तामनिश्चिन्तितस्य सर्वमङ्गलकारकं लिखित्वा पूजयेत्यस्तु मोक्षश्रियं अवाप्नुयात् गुरुभक्तिर्विशेषेण जायते हृदि सर्वदा जपन्ति शाक्ताः सौराश्च गाणापत्याश्च वैष्णवाः शैवापाशुपताः सर्वे सत्यं सत्यं न संशयः ॐ तत्सत् इति श्रीस्कान्दपुराणे उत्तरखण्डे उमामहेश्वरसंवादे श्रीगुरुगीतायां द्वितीयोऽध्यायः।